सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः अस्तु भगिनी आरम्भं करोतु
शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः
सम्यक् भगिनि एतत्
दिस् ऐ वाण्ट् यू टु
ऐल् स्टार्ट् ऐल् स्टार्ट्
जय श्री गिरिधर
स्वागतं भगिनि
नमस्कारः भगिनि
रामो राजमणि सदा विजयते रामं रमेशं भजे रामेणाभिहत निशाचरचमूः रामाय तस्मै नमः गायति वा रामा नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गातुमिच्छति वा भगिनि अस्तु तर्हि अग्रे
गच्छतु
अस्तु भगिनि नास्ति चिन्ता अद्यतन सुभाषितम् एवम् अस्ति कोऽपि पठितुमिच्छति वा
अहं पठामि
अस्तु
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते
अन्य कोऽपि पठति वा
आम् अहं पठामि
न दृश्यामि
एवं वा
अहं पठामि वा
अन्य सर्वे द्रष्टुं शक्नोति वा
आं भगिनि
दृश्यति पठतु अम्म पठति वा
न दर्शयामि
अहं न जानामि किं करणीयम् इति मया
लाग् औट् एण्ड् लाग् इन् फार् दोस् हू डोण्ट् सी कान्ट् सी इट् विल् बी बेटर्
अस्तु
कम्प्यूटर् सोल्यूशन्
लाग् बेक् लाग् औट् एण्ड् लाग् बेक् इन्
अहं पश्यामि
विद्वत्ता तथा च प्रभूता विद्वत्ता इति विद्वत्त्वं विद्वत्त्वं विद्वत्ता अपि वक्तुं शक्यते विद्वत्ता प्रभूता प्रभु इत्युक्ते नृपः नृपः इत्युक्ते राजा राजत्वम् इति रायल्टि इति वदामः खलु तादृशं विद्वत्ता विस्डम् रायल्टि एतयोः तुलना इत्युक्ते साम्य साम्या समानं समता कदापि न भवति. किमर्थं? राजा केवलं स्वदेशे एव पूज्यते. एकस्मिन् स्थलस्य राजा अन्यस्थलं गच्छति चेत् तथा सः राजा नास्ति खलु. राजा नास्ति, अतः स्वदेशे एव सः राजा. बहिः गच्छति चेत् सः राजा न, साधारणपुरुषः एव. परन्तु विद्वान् यत्र कुत्रापि गच्छति तत्र पूज्यन्ते जनाः. किमर्थं पूज्यन्ते? तस्मिन् विद्या अस्ति, अतः विद्यायाः महत्त्वम् एवम् अस्ति इति सुभाषितं वदति. बहु सुलभसुभाषितमेव खलु, सुलभसुभाषितम्. अस्तु, प्रश्नः अस्ति वा? अस्तु, अग्रे गच्छामः. गीतं गायामः वा? स्मरति वा? एकवारं यूट्यूब् पश्यामः वा? ओके, अहमेव गायामि. वन्दे भारतमातरं वद भारत वन्दे मातरं वन्दे मातरं वन्दे मातरं वन्दे मातरं. मिलित्वा गायामः वा?
आं भगिनि.
जन्म भूरियं
वीरवराणां
मातृभूमये लोकहिताय च चित्तकोपानां कृतकृत्यानां
तृणवदृष्टवता
मातृसेवनादात्मजीवने
मातृसेवनादात्मजीवने
सार्थकता मानीतवता वन्दे भारत मातरम्. मिलित्वा गायामः.
वन्दे भारत मातरम् वद भारत
वन्दे मातरम् वन्दे
मातरम्
ग्रामे ग्रामे कर्मदेशिकाः तत्त्वविदे दिनो धर्मरता अत्र सञ्चयस्त्यागहेतुको धर्मसम्मतकाम इह
नश्वर
बुद्धिः क्षण परिवर्तिने काये आत्मन्यादरधि कातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम्
वन्दे मातरम् वन्दे मातरम्
वन्दे मातरम्
अस्तु अग्रे मिलित्वा गायामः वा एकमेकं पदं
ಜೇಷಹಿತಾದಿರುತೆ
ವಂದೇ ಮಾತರಂ
ಮಾತರಂ ವದ ಭಾರತ
ವಂದೇ ಮಾತರಂ ವಂದೇ ಮಾತರಂ ವಂದೇ ಮಾತರಂ
एकवारं शृणुमः अत्र
भारत मातरं वद भारत वन्दे मातरं वन्दे मातरं वन्दे मातरं ವಂದೇ ಮಾತರಂ ಜನ್ಮಭೂರಿಯಂ ವೀರವರಾಣಂ ತ್ಯಾಗಧನಾನಾಂ ಧೀರಾಣಾಂ ಮಾತೃಭೂಮಯೇ ಲೋಕಹಿತಾಯ ಚ ನಿತ್ಯ ಸಮರ್ಪಿತ ಚಿತ್ತಾನಾಂ ಜಿತಕೋಪಾನಾಂ ಕೃತಕೃತ್ಯಾನಾಂ ಜಿತಕೋಪಾನಾಂ ಕೃತಕೃತ್ಯಾನಾಂ ವಿತ್ತಂ ತೃಣವದೃಷ್ಟವತಾಂ ಮಾತೃಸೇವನಾದಾತ್ಮಜೀವನೆ ಸಾರ್ಥಕತಾಮಾನೀತವತಾಂ ವಂದೇ ಭಾರತ ಮಾತರಂ ವದ ಭಾರತ ವಂದೇ ಮಾತರಂ ವಂದೇ ಮಾತರಂ ವಂದೇ ಮಾತರಂ ವಂದೇ ಮಾತರಂ ಗ್ರಾಮೆ ಗ್ರಾಮೆ ಕರ್ಮ ದೇಶಿಕಾಸ್ತತ್ವವೇದಿನೋ ಧರ್ಮರತಾ ಅರ್ಥ ಸಂಚಯಸ್ತ್ಯಾಗ ಹೇತುಕೋ ಧರ್ಮ ಸಮ್ಮತಃ ಕಾಮ ಇಹ ನಶ್ವರ ಬುದ್ಧಿಃ ಕ್ಷಣ ಪರಿವರ್ತಿನ್ ನಶ್ವರ ಬುದ್ಧಿಃ ಕ್ಷಣ ಪರಿವರ್ತಿನ್ ಕಾಯೇ ಆತ್ಮನ್ಯಾದರಧಿ ಜಾತೋ ಯತ್ರ ಹಿ ಸ್ವಸ್ಯ ಜನ್ಮನ ಧನ್ಯಂ ಮನ್ಯತ ಆತ್ಮಾನಂ ವಂದೇ ಭಾರತ ಮಾತರಂ ವದ ಭಾರತ ವಂದೇ ಮಾತರಂ ವಂದೇ ಮಾತರಂ ವಂದೇ ಮಾತರಂ वन्दे मातरम् मातस्त्वत्तो वित्तं चित्तं सत्त्वं प्रतिभा देह बलम् नाहं कर्ता कारयसि त्वं निःस्पृहता मम कर्म फले अर्पितमेतज्जीवनपुष्पम् अर्पितमेतज्जीवनपुष्पम् मातस्तव शुभपादतले नान्यो मन्त्रो नान्यचिन्तनम् नान्यद्देशहिताद्धिरुते वन्दे भारत मातरम् वद भारत वन्दे मातरम् वन्दे भारत मातरम् वद भारत वन्दे मातरम् वन्दे मातरम् वन्दे मातरम् वन्दे मातरम् वन्दे मातरम्
सुन्दरं गीतम् अस्तु अग्रे गच्छामः अद्यतन कथा अस्ति कीलोत्पाटी वानरः तत्र कीलकम् इति एतदेव कीलकम् सः वानरः कीलकम् उत्पाटयति उत्पाटयति इत्युक्ते अत्र स्थापितवन्तः ततः बहिः आनायति उत्पाटयति सः वानरः कीलकम् उत्पाटयति अतः सः कीलोत्पाटी वानरः बालकः पठति इति अस्ति चेत् पठितः बालकः इति तादृशं विशेषणं वानरस्य विवरणम् एवम् अस्ति कीदृशवानरः कीलोत्पाटी वानरः अस्तु श्रीनिवासमहोदय प्रथमपत्रं पठति वा कृपया
आं भगिनि कस्मिंश्चित् नगरे कश्चन धनिकः आसीत् सः एकं देवालयं निर्मापयितुम् इष्टवान् तदर्थं बहूनि वस्तूनि अपेक्षितानि आसन् कर्मकारः तेषां सङ्ग्रहणम् आरब्धवन्तः
अत्र निर्मापयितुम् इत्युक्ते देवालयं स्थापयितुं कर्तुं कारयितुम् अहमेव करोमि इत्युक्ते निर्मापयामि परन्तु अन्यान् कारयामि भवान् करोतु इति अहम् अन्यस्य मुखेन कारयामि तथा निर्मापयितुम् इति अत्र निच्यति अहं करोमि सो अत्र हेविङ्ग् इट् बिल्ट् ही इस् नाट् बिल्डिङ्ग् इट् हेविङ्ग् इट् बिल्ट् सो दट् इस् काल्ड् निच् प्रयोगः सो अहं करोमि अहं कारयामि ऐ एम् मेकिङ्ग् सम्बडि एल्स् टु कारयामि सो अत्र निर्मापयितुम् इष्टवान् अस्तु अग्रे अन्य कठिनपदानि सन्ति वा अपेक्षितानि इत्युक्ते आवश्यकानि इति साधारणम् अस्तु महोदय वदति वा सरलभाषया
ओके एकः नगरे एकः धनिकः आसीत् सः एकं देवालयं निर्णयित्वा इष्टवान् तत् कारणे अनेकानि वस्तूनि अपेक्षवान् कर्मकारः तेषां वस्तूनि सङ्ग्रहणं कृतवन्तः
कृतवन्तः अपेक्षितानि इत्युक्ते आवश्यकानि अतः कुत्र कुत्र वस्तूनि सन्ति इति अन्वेषणं कृत्वा सङ्ग्रहणं कर्तुम् आरब्धवन्तः स्वत्र एकमेव महोदय स्वत्र एकं नगरे एकम् इति एकस्मिन् इति वदति एकस्मिन् नगरे एकं किमर्थम् इत्युक्ते नगरे इति सप्तमी विभक्ति अत्र अस्मिन् तस्मिन् तादृशं भवति एकस्मिन् नगरे इति अस्तु लता भगिनी अग्रे
आं भगिनि केचन कर्मकराः काष्ठकण्ठान् आनेतुम् अरण्यं गतवन्तः ते तत्र एकं महावृक्षं चित्वा पातितवन्तः क्रतचेन तस्य विदारणम् आरब्धवन्तः यदा अर्धभागस्य विदारणं समाप्तं तदा तेषां बुभुक्षा जाता अतः ते अर्धविदीर्णस्य काष्ठकण्ठस्य मध्ये एकं कीलकं संयोज्य आहारार्थं नगरं गतवन्तः
अस्तु सो अत्रापि एकं निमिषं भगिनि सो अत्र पातितवन्तः सः पतितवान् परन्तु पातितवान् इत्युक्ते वृक्षं पातयति निच् प्रयोगः अत्रापि निच् प्रयोगः ककचनम् इत्युक्ते एतदेव ककचनं विदरणम् इत्युक्ते अत्रैव विदरणं खण्डशः इति एवं न परन्तु स्प्लिट् इति वदामः खलु तादृशं स्प्लिट् विदारणम् आरब्धवन्तः अस्तु भगिनि
पातितवन्तः इति बहुवचने
पातितवन्तः किमर्थम् इत्युक्ते ते कर्मकराः पातितवन्तः इति
पातितवन्तः
सम्यक्
देवालयं निर्मालयितुं कर्मकारः काष्ठकण्ठान् आनेतुम् इच्छन्ति ततः अरण्यं गतवन्तः ते तत्र एकं महावृक्षं चित्वा पातितवन्तः चित्वा मीन्स् कट् नो
कट् आं कट्
चित्वा पातितवन्तः क्रकचेन तस्य विदारणम् आरब्धवन्तः विदारणं
खण्डशः कर्तुं खण्डशः
कण्ठशः कर्तुम् आरब्धवन्तः यदा अर्थभागस्य विदारणं समाप्तं तदा तेषां बुभुक्षा जाता अर्थभागस्य विदारणं कर्तुं समये तेषां ते बुभुक्षा अस्ति अतः ते अर्थविदीर्णस्य
ते बुभुक्षिताः भवन्ति
ते बुभुक्षिताः भवन्ति अतः ते अर्धविदीर्णस्य काष्ठकण्ठस्य मध्ये एकं कीलकं संयोज्य आहारार्थं नगरं गतवन्तः अतः ते काष्ठकण्ठस्य मध्ये एकं कीलकं स्थापयित्वा आहारार्थं नगरं गतवन्तः
अस्तु सम्यक् भगिनि सो अत्र तेषां बुभुक्षा इत्युक्ते मम बुभुक्षा अस्ति तस्य बुभुक्षा अस्ति तस्य तयोः तेषां बुभुक्षा अस्ति अथवा जाता परन्तु अहं बुभुक्षिता अस्मि सः बुभुक्षितः अस्ति तादृशप्रयोगः भवति बुभुक्षितः इति वदामः चेत् विशेषणं कस्य विशेषणं सः इति सः बुभुक्षितः अस्ति तादृश परन्तु बुभुक्षा इति अव्ययम् इव भवति, तेषां बुभुक्षा मम बुभुक्षा अस्ति इति परिवर्तनं न भवति. बुभुक्षा अव्ययम् सः बुभुक्षितः अस्ति. ही इस् हङ्ग्रि इति. ही इस् हङ्ग्रि. ऐ एम् हङ्ग्रि. अहं बुभुक्षिता अस्मि. सा बुभुक्षिता अस्ति. परन्तु बुभुक्षा इति वदामः चेत् ही हेस् हङ्गर् इति. हङ्गर् वर्सेस् हङ्ग्रि.
सो जाता इस् स्त्रीलिङ्ग्. स्त्रीलिङ्ग्
आम् बुभुक्षा जाता. बुभुक्षा जाता. सम्यक्. तस्य बुभुक्षा अस्ति, भवति, जाता. मम बुभुक्षा भवति. मम ऐ हेव् हङ्गर् इति. बुभुक्षा इति अस्ति चेत् हङ्गर्. बुभुक्षितः अस्ति मीन्स् ही इस् हङ्ग्रि. बुभुक्षितः बुभुक्षिता. सा बुभुक्षिता. ते बुभुक्षिताः सन्ति.
जाता इति तप्रत्यय.
जाता तप्रत्यय.
जातः जाता जातम्.
करेक्ट्. आम् जातः जाता जाता. प्रश्नः वा, अग्रे गच्छामः वा?
भगिनी उत्पाटयति अर्थं किम्?
उत्पाटय सो अत्र एव उत्पाटयति. मध्ये अस्ति टु टेक् इट् औट् इति. टेक् इट् औट् उत्पाटयति. कीलकम् उत्पाटयति वानरः इति.
क्रकचेन इति अर्थस्य क
क्रकच. क्रकचः इत्युक्ते एतदेव सा इति. साधारणतया उत् इति वदामः चेत् अधस्तात् उपरि आगच्छति. कूपः अस्ति, कूपात् जलम् उद्धृतति. उद्धरति. उद्धृतवान् इति. उद्धृतवान् उपरि. उपरि आगच्छति इति. अस्तु, मङ्गल् भगिनि बहु लघुकथा एव, अर्धभागं पठतु भगिनि.
तदा एकः वानरः तत्र आगतः. अर्धविदीर्ण काष्ठखण्डं दृष्ट्वतः तस्य कुतूहलं जातं. सः तत् कीलकम् उत्पाटयितुं प्रयत्नम् अकरोत्. I'll stop here.
परन्तु न शक्तम्.
परन्तु न शक्तम्.
अस्तु, वदतु भगिनि.
वेरि डिफिकल्ट्. हि ट्रै टु रिमूव् द पेग् अण्ड् हि कुड् नाट्. न शक्तम् इस्
न कुड् नाट्. अत्रापि वानरः तत्र आगतः प्रत्यय. वानरः अत्र तत्र आगतः. अर्धविदीर्णं काष्ठखण्डं दृष्टवतः. सो अत्र दृष्टवान्. दृष्टवान् इति नामपदम्. दृष्टवान् उदाहरणं भवान् इति. भवान् इति पदस्य षष्टिविभक्तिः कथं भवति? भवान् भवत्. हौ डु वि आस्क् वाट् इस् युवर् नेम्? भवान् अत्र अस्ति. भवतः नाम खलु भवतः. सो अत्र भवतः इति षष्टिविभक्तिरूपं भवति तः इति. अत्र अपि तथा एव. वानरः आगतवान्. वानरः दृष्टवान्. दृष्टवतः तस्य कुतूहलं जातम्. अत्र कुतूहलम् इति अस्ति, अतः जातम् इति अस्ति.
on seeing that he became very curious.
Very curious. Kuduhalam jatam. Tasya. Purvam vayam kim drishtavantaha. Tasya bubuksha jata. Paranta atra bahuvachanam. Tasya tayoho tesham. Tesham bubuksha jata. Atra tasya kuduhalam jatam.
Napumsakalingam.
Kasya kuduhalam jatam. Drishtavataha tasya. He who had seen. Sundaram Kalo, usage is very beautiful.
Bhagini, jatam is becoming curious.
Becoming. A curiosity utpannam abhavat from in his mind.
Oh, okay.
It sprang up in his mind like that. Hunger came from inside him like that. Jatam. Jatam is a janana. It comes from janana. Astu. Saha keelakam utpatayitum prayatnam kritaman parantu na shaktam. Astu. Agre. Veena ben Bhagini.
Tataha saha tasya kashta khandasya madhyabhage samyak upavishtvan. Tan madhye yojitam keelakam mahata prayatnena utpatitvan.
अत्रैव स्थगयतु. किं कृतवान् सः? उत्पाटयितुं न शक्तवान्, अतः किं कृतवान्? मध्ये एव उपविष्टवान्. मध्यभागे सम्यक् उपविष्टवान्. अनन्तरं किं कृतवान्?
किलकं प्रयत्नेन उत्पाटितवान्.
प्रयत्नेन. सो अत्र महत् इति शब्दः भवत् इव. प्रयत्नेन इति तृतीयाविभक्तिरूपं. भवत् शब्दस्य तृतीयाविभक्तिरूपं कथं भवति?
महता.
भवता, महता. सो अत्रापि तथा एव. प्रयत्नेन उत्पाटितवान्. अतः किम् अभवत्? सः मध्ये आसीत् खलु. अस्तु, अग्रे विष्णुमहोदय.
कीलकं तु बहिः आगतं, परन्तु तन्मध्ये लग्नं मानरस्य पादद्वयम् अपि भग्नं. वेदनया पीडितः सः वानरः तत्रैव मृतः.
अत्र चित्रं सम्यक् नास्ति, परन्तु पादद्वयमपि मध्ये आसीत्. पादद्वयं मध्ये आसीत्. किम् अभवत्? सः कीलकम् उत्पाटितवान्, अतः किम् अभवत्?
पादद्वयं भग्नम्.
भग्नम् अभवत्. किमर्थम् इत्युक्ते अर्धभागम् आसीत् खलु अत्र. तत् came together with it. It closed.
His foot got squeezed in it.
Squeezed. Samya. Padadvayam api magnam. Tan madhye lagnam manarasya pada. Lagnam itite, it was inside. Suck it. Manarasya padadvayam api vagnam. भग्नं. वेदनया पीडितः वानरः तत्र एव मृतः.
सः न जानन्ति मध्ये.
इदानीं
कीलकं बहिः आगतं, पाद भग्नम्.
एकनिमिषं महोदय. अस्तु, क्षम्यता. अत्र सः मध्ये उपविष्टवान्, कीलकम् उत्पाटितवान् परन्तु सः मध्ये पादद्वयं स्थापितवान् सम्यक् स्थापयित्वा कीलकम् उत्पाटितवान् कीलकं बहिः आगतं परन्तु किम् अभवत् तस्य पादद्वयं मध्ये एव लग्नम् आसीत् लग्नम् इत्युक्ते स्टेशनरि खलु लग्नम् इमर्स्ड् तादृशमपि वदामः सो द टु पीसस् दे क्लोस्ड् अतः पादद्वयं भग्नम् अभवत् अतः वेदना अनुभूता अनुभूतवान् वेदनाम् अनुभूतवान् वेदनया पीडितः वानरः तत्रैव मृतः सो अत्र
भगिनि भग्नम् इत्युक्ते किं
ब्रोक् ब्रोक्
अस्तु धन्यवादः
धन्यवादः अस्तु सागरी भगिनी भवती पठितुम् इच्छति वा श्लोकं
पठामि भगिनि
अकर्तव्येषु
व्यापारं यो नरः कर्तुम् इच्छति अवश्यं विपदं याति किलोपाटिव वानरः किलोत्पाटिव वानरः
अत्र एवं चित्रम् एवम् पादद्वयं तत्र लग्नमासीत् भग्नमासीत् अतः सः तत्रैव मृतवान् अत्र अकर्तव्यानि कार्याणि न करणीयम् अकर्तव्यानि इत्युक्ते किं न करणीयं तादृशकार्यं मा करोतु न करणीयम् परन्तु अकर्तव्येषु कार्येषु यः नरः व्यापारम् इत्युक्ते व्यवहारं कार्यं कर्तुम् इच्छति तादृशकार्येषु यः कार्यं कर्तुम् इच्छति तादृशकार्यं यः कर्तुम् इच्छति सः अवश्यम् इत्युक्ते निश्चयेन विपदम् इत्युक्ते आपदं दौर्भाग्यं प्रति गच्छति उदाहरणमस्ति कीलोत्पाटी वानरः इव कीलोत्पाटी किमर्थं तत् उत्पाटयितुम् इच्छति तादृशकार्यं मा करोतु इति परन्तु तादृशकार्यं करोति चेत् किम् अभवत् आपदभवत् आपदं प्रति गच्छति तस्य जीवनम् इति उदाहरणरूपेण अस्ति एषा कथा प्रश्नः अस्ति वा न इति मन्ये अस्तु अस्माकं विषयः अस्ति लट्लकारः वर्तमानकाल सो सुलभतया स्मर्तुम् अस्ति तीतः अन्ति प्रथमपुरुषरूपाणि अन्ते तीतः अन्ति मध्यमपुरुषे सीतः थ उत्तमपुरुषे मीवः मह तीतः अन्ति सीतः थ मीवः मह तीतः अन्ति सीतः थ मीवः मह अस्तु गतवर्गे कोऽपि पृष्टवान् पुनः एकवारं वदतु इति सो अत्र दशगणाः सन्ति अस्मिन् स्तरे इन् दिस् स्टेज् वि डोण्ट् नीड् टु नो परन्तु कुतूहलम् इति अस्ति अतः अहं वदामि सो अत्र धातुतः आगच्छति धातु अस्ति अनन्तरं ति इति तिङन्तप्रत्यय तिङ् प्रत्यय सर्वत्र क्रियापदमस्ति चेत् तिङ् प्रत्यय भवति पठति लिखति तु अपि अस्ति मी अपि अस्ति परन्तु ति एव साधारणतया वयं वदामः तिङ् प्रत्यय धातु अस्ति तिङ् प्रत्यय अस्ति मध्ये किमपि अस्ति भिन्नभिन्न रूपाणि भवन्ति मध्ये. तस्य नाम अस्ति विकरणप्रत्यय. विकरणप्रत्यय, विकरणप्रत्ययं वयं जानीमः चेत् तस्य आधारेण वयं वक्तुं शक्नुमः गणस्य नाम किम्, एषः धातु कस्मिन् गणे अस्ति इति ज्ञातुं शक्नुमः. एकस्मिन् गणे धातु अस्ति चेत् तादृशगुणः भवति, पैटर्न्, पैटर्न् अपि तथा एव भवति. उदाहरणार्थं पठति, पट् अस्ति, ति अस्ति, मध्ये अ अस्ति, अतः पट् अति. अ अस्ति चेत् विकरणप्रत्यय, अ अस्ति चेत् भुआदिगणे, भू आदिगणे. परन्तु अत्र अपि अस्ति, तुदादिगणे अपि अस्ति. सो अत्र मुद्रणदोषः तुदादि. सो अत्र अपि अ अस्ति. भेदः कः? भुआदिगणे गुणकार्यं भवति, गुणम् इत्युक्ते किं? वयम् अहं वदामि खलु, गुरु अस्ति चेत् व भवति, उ अस्ति चेत् व, इ अस्ति चेत् य, तादृशगुणः. इ अस्ति चेत् ए भवति, उ अस्ति चेत् ओ भवति, तादृशम् अस्ति गुणः, सन्धि भवति. उदाहरणार्थं भू अ इति अस्ति. सो अत्र उ अस्ति, ऊ व भवति, अतः भवति. भू अति, भुआति न भवति, भवति. सो अतः भुआदिगणे, भुआदिगणे अस्ति. परन्तु अत्र तुदादिगणे. सो अत्र तुत् अस्ति, अ अस्ति, परन्तु व न आगच्छति अत्र. अवगच्छन्ति वा सर्वे? अत्र थु अस्ति, अ अस्ति, वा न आगच्छ, अत्र गुणकार्यं न भवति. मिल् अस्ति, अ अस्ति, इ अस्ति चेत् य आगन्तव्यं खलु, परन्तु य न आगच्छति, मिलति एव. सो अतः तादृशं भवति. उदाहरणम्, अन्य उदाहरणं वदामि. आप् ति, मध्ये नो अस्ति, नो इति विकरणप्रत्ययः. कस्मिन् गणे अस्ति? स्वादिगणे, अतः स्वादिगणे अस्ति. अत्र अत्र पश्यन्तु, शक्नोति, शक्नो स्वादिगणे, शक्नोति. आप्नोति स्वादिगणे, स्वादिगणे नो नो इति आगच्छति, तादृशमेव. अस्तु वा? इदानीम् एतादृशज्ञानं पर्याप्तम् इति अहं चिन्तयामि. अस्तु महोदय, वदतु.
पठति इति मध्ये वा न अस्ति
कुत्र?
पठति,
पठति मध्ये अ अस्ति.
मिलति अ अस्ति,
अतः एव अहम् उक्तवती अत्र मिलति इति मध्ये गुणकार्यं न भवति, परन्तु अत्र गुणं भवति. लिटिल् बिट् काम्प्लिकेटेड्. अस्तु, अत्र एव किञ्चित् भ्रमः भवति. अन्य सर्वत्र भिन्नभिन्नविकरणप्रत्ययः भवति. अय लैक् चोरयति, प्रेषयति, चिन्तयति, अन्ययति, पूजयति, तादृशम् अस्ति चेत् सुरादिगणे. नो चक्नोति, प्राप्नोति, नोति, तादृशम् अस्ति चेत् स्वादिगणे.
इट् लुक्स् अ लिटिल् बिट् आफ् मग्अप् इस् रिक्वैर्ड् बिकास् फार् एक्साम्पल् विकरणप्रत्यय अण्ड् नेम् आफ् द गण इस् नाट् डैरेक्ट्लि कोरिलेटेड्
न बिकास् इट् गोस्
ऐ समथिङ्ग् चुरादिगण मि टु रिमेम्बर् लाट् आफ् थिङ्ग्स् देन्
येस् दट्स् वै इट्स् ऐ जस्ट् I don't want to get too detailed in. Don't get too much into it. Just for curiosity, pariyapta. Okay. Astu. Astu. Atra, Gita Swapanam Prati Gacchamaha, Etatvayam Kritavantaha, Purvasmin Gane. So, Atra, Ekam Ekam Vakyam Vadamaha, चित्रं दृष्ट्वा चित्रे के के किं 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 कुर्वन्ति इति यतोदाहरणं वाक्यानि लिखत धेनवः चरन्ति अत्र धेनुः एव परन्तु धेनवः चरन्ति नास्ति चिन्ता अस्तु निर्मला भगिनी वदति वा किमपि किमपि वा
उर्मिला भगिनी भवती उक्तवती वा निर्मला अहं न जानामि
अस्तु भगिनि वदतु
द्वे महिले सम्भाषणं कुरुतः
सम्यक् कुरुतः अस्तु सविता भगिनि
बालकाः क्रीडन्ति बालकाः धावन्ति
बालकाः धावन्ति इदानीं द्विवचनं वदति चेत्
द्वे बालकाः धावामि
द्वौ बालकौ
बालकौ धावतौ
धावतः धावतः द्वौ बालकौ धावतः धावतः सम्यक् भगिनि उर्मिला भगिनी अग्रे
ओके जनाः सम्भाषणं कुर्वन्ति
जनाः सम्भाषणं कुर्वन्ति द्विवचनमस्ति चेत् अहं केवलं पृच्छामि चित्रे
जनौ भाषणं कुरुतः
जनौ सो अत्र जनद्वयम् अस्ति खलु जनौ भाषणं कुरुतः सम्यक् अस्तु
महिला तिष्ठति शुनकः तिष्ठति
महिला तिष्ठति शुनकः तिष्ठति पर्याप्तं भगिनि अस्तु अग्रे उमाकृष्णन् भगिनि म्यूट् मध्ये अस्ति वा उमाकृष्णन् भगिनि
आं भगिनि ऐ वुड् लैक् टु बि आन् म्यूट् टुडे
अस्तु अस्तु धन्यवादः मालति भगिनि वदति वा भवती अपि म्यूट् मध्ये वा अस्तु अम्ब वाक्यं वदति
एक बालकः सम्भाषणं
कुर्वन्ति अत्र द्वे महिले बालकः च सम्भाषणं कुर्वन्ति सम्यक् धन्यवादः श्रीनिवास महोदय
शुनकः अटति
शुनकः अटति अस्तु शुनकः अटति अस्तु सम्यक् लता भगिनी
एकः बालकः द्वौ महिले मध्ये तिष्ठति द्वयोः
महिलयोः मध्ये
द्वयोः महिलयोः मध्ये तिष्ठति
सम्यक् सम्यक्
धन्यवादः
धन्यवादः मङ्गल् भगिनी
I want to say देवस्थानं दूरं पश्यामि
पश्यामि देवस्थानं दूरे अस्ति देवस्थानं पश्यामि दूरे स्थितं देवस्थानं पश्यामि सम्यक् वीणा बेन् भगिनि
चत्वारः वृक्षाः सन्ति
चत्वारः वृक्षाः सन्ति सम्यक् चत्वारः विष्णुमहोदय
द्वौ पर्वतौ स्तः
सम्यक् द्वौ पर्वतौ स्तः अस्तु सागरी भगिनी
एकः धेनुः वृक्षस्य अधः
पृष्ठतः वृक्षस्य पृष्ठतः
I forgotten the word for sitting, Bhagini.
Upavishati.
Upavishati, yes. Upavishati.
Upavishati. Astu. Astu. अस्तु सर्वे उक्तवन्तः वा सविता भगिनि
न भगिनि अहं चम्पा वदति
चम्पा भगिनि भवत्याः नाम न लिखितवती वदतु भगिनि
द्वौ वृक्षोः मध्ये मन्दिरम् अस्ति
द्वयोः वृक्षयोः मध्ये मन्दिरम् अस्ति अस्तु सम्यक् अन्य कोऽपि वक्तुमिच्छति वा वदतु भगिनि
निर्मला
पुनः पुनः वदतु
उन्नतौ वृक्षौ सन्ति
द्वौ शुनकौ वृक्षौ सन्ति एकः एव उन्नतौ सम्यक् सम्यक् अहं चिन्तयामि शुनकौ अत्य उन्नतौ वृक्षौ सन्ति वा किम् अस्ति वा स्तः वा सन्ति वा एकः वृक्षः अस्ति द्वौ वृक्षौ स्तः स्तः खलु स्तः अत्र पश्यतु कुत्र अस्ति अस्ति स्तः सन्ति अग्रे अग्रे आगच्छति प्रायः अस्तु अस्ति स्तः सन्ति एवम् एवम् एवं भवति अस्ति स्तः सन्ति द्वौ उन्नतौ वृक्षौ स्तः अस्तु अग्रे अग्रे
भगिनि पत्या सह पत्नी उपविशति
सम्यक् पत्न्या सह पतिः उपविशति तदपि सम्यक्
द्वौ बालकौ क्रीडन्ति पार्श्वे का अस्ति
द्वौ बालकौ क्रीडतः
पार्श्वे का सन्ति
पार्श्वे कः अस्ति के के सन्ति
पार्श्वे बिल्डिङ्ग्
भवनं
पार्श्वे भवनम् अस्ति
कुत्र
बालकौ पार्श्वे
बालकयोः पार्श्वे बालकयोः पार्श्वे मन्दिरम् अस्ति मन्दिरभवनम् अस्ति मन्दिरभवनम् अस्ति दूरे किम् अस्ति मन्दिरम् अस्ति अन्यमन्दिरम् अस्ति
धेनवः एका धेनु उपविशति
उपविशति वा चरति वा खादति
चरति
चरति धेनुः धेनू धेनवः खलु सो धेनू
धेनू
द्वे धेनू सः एका धेनुः चरति
चरति
अस्तु
भवन्
अम्ब वदतु
नागर् के गर् नाग पुत्र
ओ कुत्र एतत् वा ओ
मड्डि नागर् मड्
ओ एवं वा
भवति
भगिनी एका महिला एकः महिला शुनका दृष्ट्वा भीता आसीत्.
आम् आम् एका महिला शुनकं कल्पना सम्यक् अस्ति. भीत्या तथा एव तिष्ठति खलु.
What was that, Bhagini? I did not understand.
She said she is looking at the dog and getting scared.
Oh, okay.
Eka mahila shunakam drishtva bhita asti.
Okay.
Astu. Agree. Saratihi saratihi saratayah. सारथिः चलति सारथी चल चालयतः अस्तु चालयति चालयतः चालयन्ति चालयति चालयतः चालयन्ति अस्तु श्रीनिवास महोदय आरम्भं करोति वा मुनिः मुनिः
मुनिः जपति मुनि मुनि जपतः मुनयः जपन्ति
मुनयः जपन्ति
तीतः अन्ति
तीतः अन्ति दट् इस् द थिङ्ग् द पाटर्न् तीतः अन्ति सो स्मरन्तु सर्वे तीतः अन्ति मध्ये मध्ये किमपि आगच्छति परन्तु तीतः अन्ति अस्तु अम्ब शत्रुः शत्रुः असूयति
शत्रुः असूयति शत्रुः असूयतः शत्रवः असूयन्ति
सम्यक् असूयन्ति अस्तु लता भगिनी इन्द्रियम्
इन्द्रियं हरति इन्द्रिये हरतः इन्द्रियाणि हरन्ति
सम्यक् खलु प्रथमं वयं नामपदानां रूपाणि पठितवन्तः अनन्तरं क्रियापदानां रूपाणि इदानीं मिलित्वा बहु सम्यक् मङ्गल् भगिनि दुष्टः
दुष्टः विनश्यति दुष्टौ विनश्यतः दुष्टाः विनश्यन्ति
दुष्टः दुष्टौ दुष्टाः इन्द्रियम् इन्द्रिये इन्द्रियाणि शत्रुः शत्रू शत्रवः मुनिः मुनी मुनयः सारथिः इव इदानीं त्वं वीणाबेन् भगिनि
त्वं मोहयसि युवां मोहयथः यूयं मोहयथ
सो अत्र अत्र त्वं युवां यूयम् एव अन्य किमपि न आगच्छति त्वं युवां यूयं सीतः थ सीतः अन्ति सीतः थ अस्तु विष्णुमहोदय
आं भगिनि अश्वः धावति अश्वौ धावतः अश्वाः धावन्ति
सम्यक् सीतः अन्ति अश्वः अश्वौ अश्वाः अस्तु सागरी भगिनी यशोदा अन्य निर्मला भगिनी कृष्णः एतत् पर्यन्तं पठतु कृते
हे कृष्ण त्वं कुत्र असि
निर्मला भगिनी किञ्चित् वदति वा भगिनि
युवां तत्रैव स्तः किम्
तत्रैव श्वः नीला अपि अत्र अस्ति
न शृणोतु भगिनि
अहं पुनः वदामि
यूयं चोराः स्तः स्त किमस्ति तव हस्ते नवनीतं खादसि किम्
नैव अम्मा वयं क्रीडामः
असत्यं वदथ नवनीतं चोरयथ खलु
ममेव यच्छसि खलु पुनः वयं किमर्थं चोरयामः
चोरयामः सो अत्र स्थगयतु कृपया त्वम् असि तत्र सि तः सो दिस् इस् द पेटर्न् सि सि थः थः थ मि वः मः अहम् अन्य तत्र मि वः मः सि थः थ मि वः मः प्रथमपुरुषे कथं भवति तीतः अन्ति खलु कुत्र अस्ति ति तत्र सम्यक् नास्ति चिन्ता मास्तु सो अत्र एवम् अस्ति त्वम् इति अस्ति चेत् कथं भवति वाट् इस् द पेटर्न् त्वम् इति अस्ति चेत् त्वं त्वम् अस्ति चेत् सीतः त अहम् उत्तमपुरुष अस्ति चेत् मि वः गच्छामि गच्छावः गच्छामः अस्मि स्वः स्मः सर्वत्र मि वः मः मध्ये किमपि आगच्छति परन्तु अन्ते मीवः मह अस्तु अवगच्छन्ति वा हे कृष्ण त्वं कुत्र असि अहं द्वारस्य पृष्ठतः अस्मि द्वारम् अस्ति द्वारस्य पृष्ठतः अग्रजः अपि अत्र अस्ति यशोदा युवां सो अत्र कृष्णः अस्ति बलरामः अपि अस्ति अतः युवां द्विवचनं युवां तत्रैव स्तः सि एकवचनं सि द्विवचनं स्तः युवां तत्रैव स्तः किम् आम् आवां सो प्रथमम् अहम् अस्मि इदानीम् आवां स्वः मि वः मह स्वः गच्छा वः पठा वः आवां स्वः पठा व लिखा वः स्वः अन्ते वः एव आगच्छति सर्वत्र अत्रैव स्वः नीला अपि अत्र अस्ति अत्र उत्तमपुरुषः भवति ति तः अन्ति यम् इदानीं सो अत्र कृष्णः बलरामः इदानीं नीला अपि अस्ति कृष्णः बलरामः इदानीं नीला सो अत्र बहुवचनम् अभवत् इदानीं सो अतः यूयं प्रथमं त्वम् अनन्तरं युवाम् इदानीं यूयं चोराः स्त यूयं स्त युवां स्तः त्वं सि असि असि न असि मीन्स् यु आर् देर् इति त्वं कुत्र असि वेर् आर् यु त्वं कुत्र असि युवां तत्रैव स्तः युवां तत्र स्तः यूयं चोराः स्त असि स्तः स्त अवगतम्
अवगतम्
अस्तु अस्तु अत्र किम् अस्ति तव हस्ते सो अत्र पुनः प्रथमपुरुष भवति किम् अस्ति नवनीतं खादसि सो अत्रापि सि पूर्वम् असि आर् अस् अस् धातु पूर्वम् अस् अस् धातु स्वीकृत्य असि स्तः स्त इदानीं खाद् धातु खाद् खाद् धातु खाद् असि सो अत्र अस् अस्ति अस्ति इति अस्ति चेत् केवलं कुतूहलम् अस्ति अस्ति एवम् अस्ति मध्ये किमपि नास्ति अतः अदादिगणे अस्ति केवलं ज्ञानार्थं वदामि अस्तु अत्र अस् बिकेम् असि इदानीं खाद् खाद् असि नवनीतं खादसि किं नैव अम्ब वयं क्रीडामः वयम् आगच्छति चेत् मह वयं क्रीडामः उत्तमपुरुषरूपम् असत्यं वदत इत्युक्ते कीदृशरूपम् एकवचनं वा बहुवचनं किमर्थं बहुवचनम् इति जानाति वदति भवान्
वयम् आगच्छति
सो अत्र वदत इति अस्ति असत्यं वदत विसर्गः नास्ति वदत अत्र युवां नास्ति यूयम् इति नास्ति त्वम् अपि नास्ति परन्तु वदत इति रूपं दृष्ट्वा एव वयं वक्तुं शक्नुमः बहुवचनरूपम् इति सर्वे गोपालाः इदानीं बलरामः अस्ति कृष्णः अस्ति नीला अपि अस्ति मिलित्वा अत्र लिङ्गभेदः नास्ति किमर्थम् इत्युक्ते क्रियापदम् नवनीतं चोरयथ खलु वदथ खादथ चोरयथ चोरयथ अत्र यत इति आगच्छति चुर् दातु परन्तु यत इति आगच्छति अहं केवलं ज्ञानार्थं दर्शयामि यत् अय आगच्छति चेत् चुरादिगण चुर् चुर् दातु चोरयति चूर् धातु एवं भवति चोरयामः पुनः कृष्णः वदति त्वमेव यच्छसि खलु यच्छसि रूपं किं यच्छसि मध्यमपुरुष एकवचनम् अन्तिमरूपं दृष्ट्वा वक्तुं शक्नुमः सीथः थ मीवः मः अन्यत् किमपि अस्ति खलु
सीतः
अन्ति अन्तिमरूपं दृष्ट्वा वयं वक्तुं शक्नुमः किम् इति त्वमेव यच्छसि खलु यच्छसि मीन् ददाति दत्तवती खलु त्वमेव यच्छसि ददाति ददसि खलु पुनः वयं किमर्थं चोरयामः वयं मह त्वं सि प्रश्नः वा अस्तु अग्रे का वदति निर्मला भगिनी अभवत् सविता भगिनी उर्मला भगिनी अस्ति वा अस्तु सविता भगिनी यशोदा उर्मिला कृष्णः
किन्तु गोपिका वदति त्वां नवनीतं नयसि इति
मिथ्या अम्ब अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि
युवां चौरोस्तः एव किमर्थम् असत्यं कथयसि
नीले त्वं वदसि चेत् एव अम्बा विश्वसिति
पर्याप्तम् अहं विश्वसिमि आगच्छतः
अस्तु आगच्छामः.
अस्तु सुन्दर धन्यवादः. अत्र किन्तु गोपिका वदति, वदति इति रूपं किम्?
प्रथमपुरुष
एकवचनं. त्वं नवनीतं नयसि मध्यमपुरुष खलु, मध्यमपुरुष, मध्यमपुरुष त्वम् उत्तमपुरुष. एतदेव उत्तमपुरुष, उत्तमपुरुष. नवनीतं नयसि इति त्वं नयने, त्वं किन्तु गोपिका वदति त्वमेव नय नवनीतं नयसि इति. मिथ्याम्ब अग्रजं पृच्छसि चेत् इत्युक्ते त्वं, सो अत्र त्वम् इति नास्ति परन्तु पृच्छसि इति अस्ति, अतः वयं जानीमः त्वम् इति आगच्छति इति. अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि. भवति इति अस्ति चेत् कथं भवति? भवति अग्रजं पृच्छति चेत् सत्यम् अवगच्छति इति भवति, परन्तु भवति इति न, त्वम् एव. युवां चोरौ द्विवचनं, युवां चोरौ स्तः, सर्वत्र द्विवचनं युवां चोरौ स्तः इति. किमर्थम् असत्यं कथयसि? पुनः एकवचनं भवति अत्र. सीतः थ नीले. त्वं वजस् वदसि चेत् एव अम्ब विश्वसिति. विश्वसिति रूपं किम्?
प्रथमपुरुष
एकवचनं. त्वं वदसि रूपं किम्?
मध्यमपुरुष एकवचनं.
मध्यमपुरुष एकवचनं. सर्वे स्मरन्तु, प्रथमपुरुष तीतः अन्ति, मध्यमपुरुष सि थः थ, उत्तमपुरुष मीवः मह. अस्तु पर्याप्तम्. अहं विश्वसिमि मि. अहम् उत्तमपुरुष एकवचनं. अवगच्छत आगच्छत
मध्यमपुरुष बहुवचनं.
मध्यमपुरुष. सो त्वं सि युवां यूयम् आगच्छत. सो अत्र यूयं, यूयम् इति नास्ति, पदं नास्ति, परन्तु वयं जानीमः यूयं, यूयम् आगच्छत. अस्तु आगच्छामः. आगच्छामः इति अस्ति चेत् उत्तमपुरुष बहुवचनं. सो अत्र वयं, वयम् आगच्छामः. सुन्दरं खलु. पुनरेकवारं पठामः, मनसि निधाय सर्वे पश्यन्तु. सविता उर्मला अभवत्. उमाकृष्णन् भगिनी वदति वा? चम्पा भगिनी, उमाकृष्णन् भगिनी, चम्पा भगिनी.
आं भगिनि. हे कृष्ण, त्वं कुत्र असि?
चम्पा भगिनी.
आं भगिनि. हे कृष्ण, त्वं कुत्र असि?
उमाकृष्णन् भगिनी क्षम्यताम्, नास्ति. अस्तु, अन्य कोऽपि अस्ति वा यस्य नाम अहं न पृष्टवती?
अहं वदामि.
अस्तु अम्ब वदतु. कृष्ण,
अहं द्वारस्य पृष्ठतः अस्मि, अग्रजः अपि अत्र अस्ति.
युवां तत्रैव स्तः किम्?
आम्, आवाम् अत्रैव स्तः. लीला अपि अत्र अस्ति.
यूयं चोराः स्तः किम् अस्ति तव हस्ते? नवनीतं खादसि किम्?
नैव अम्ब, वयं क्रीडामः.
असत्यं वदथ, नवनीतं चोरयथ खलु?
त्वमेव यच्छसि खलु, पुनः वयं किमर्थं चोरायामः?
किन्तु गोपिका वदति त्वं नवनीतं नयसि इति.
मिथ्या अम्ब, अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि.
युवां चोरौ स्थः इव किमर्थम् असत्यं कथयसि?
नीले तं वदसि चेदेव अम्बा विश्वसिति.
पर्याप्तम्, अहं विश्वसिमि. आगच्छथ.
अस्तु, आगच्छामः.
सुन्दरं, धन्यवादः. अस्तु, अग्रे गच्छामः. अहम् आवां वयम्. एतेषु उचितस्य रूपस्य प्रयोगेण एतेषां प्रश्नानाम् उत्तराणि लिखत. त्वं फलं प्राप्नोषि किम्? अत्र कीदृश उत्तरम् आगच्छति? त्वं फलं प्राप्नोषि किम्?
अहं फलं प्राप्नोमि.
किं मास्तु, अहं फलं प्राप्नोमि, तादृशमेव. अहं फलं प्राप्नोमि. धन्यवादः भगिनि. इदानीं श्रीनिवासमहोदय अग्रे. भवन्तः गीतां जानन्ति किम्?
भवतः गीतां जानन्ति किम्? आम्, वयं गीतां जानीमः.
सम्यक्, जानीमः, उत्तमम्. वयं जानीमः, गीतां जानीमः. अस्तु, लता भगिनि.
यूयं पाठं शृणुत किं? वयं पाठं शृणुमः.
शृणुमः. अत्र त्वं युवां यूयं बहुवचनं, अत्रापि वयमेव आगच्छति. वयं पाठं शृणुमः. सम्यक्, अस्तु. अम्ब,
यूयं श्लोकान् चिनुतः चिनुत किम्?
बहुवचनं, यूयं चिनुत शृणुत. उत्तरं किं भवति? अहम् आवाम्
आवां श्लोकान्
अहम् आवां वयं
चिनुतः
वयं
चिनुतवः
चिनुमः
चिनुमः चिनुवः
न न यूयं त्वं 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 युवां यूयं.
भगिनी, एकः प्रश्नः अस्ति. यूयं पाठं शृणुत किं? वयं पाठं शृण्मः अपि सम्यक् वा?
शृण्मः अपि सम्यक्, शृणुमः अपि सम्यक्. सत्यं.
धन्यवादः भगिनि.
अहम् आवां, धन्यवादः भगिनि. अहम् आवां
शृणुमः
अथवा वयं श्लोकान् शृणुमः. सम्यक्. मङ्गल भगिनि,
ओके, फोर्थ् वन् रैट्?
फिफ्त् वन् भगिनि, पञ्चम.
भवती गीतासारं जानाति किम्? सो दिस् इस् फस्ट् पर्सन्.
अहं वा आवां वा वयं वा?
आवां
न. अत्र वाट् वी शुड् फिगर् औट् इस् एकवचनं वा द्विवचनं वा बहुवचनं वा, तावदेव. एकवचनम् इति एकवचनमस्ति चेत् अहम् इति आगच्छति. द्विवचनमस्ति,
अहं गीतासारं जानामि.
सम्यक्, अहं गीतासारं जानामि. अहं गीतासारं जानामि. सम्यक्. वीणाबेन भगिनी, युवां
युवां गीतापुस्तकं गृह्णीतः किम्? आम्, आवां गीतापुस्तकं गृह्णीवः.
सम्यक्, वः वृणीवः अस्तु विष्णुमहोदय अस्ति वा विष्णुमहोदय
आं भगिनि
म्यूट् मध्ये
कर्तुं शक्नोषि किम् अहं कार्यं कर्तुं शक्नोमि
सम्यक् अहं कार्यं कर्तुं शक्नोमि एकवचनरूपम् अस्तु अग्रे सागरि भगिनि
युवां जीवनलक्ष्यं प्राप्नुतः किम् आवां जीवनलक्ष्यं प्राप्नुवः
सम्यक् प्राप्नुवः द्विवचनं प्राप्नुवः अस्तु निर्मला भगिनि
गीतायाः कण्ठस्थीकरणं कुर्मः
सम्यक् कुर्मः सम्यक् सविता भगिनि
आं भगिनि भवन्तः पुष्पाणि चेतुं शक्नुवन्ति किं भवन्तः वयं पुष्पाणि चेतुं शक्नुमः
सम्यक् पुष्पाणि चेतुं शक्नुमः सम्यक् धन्यवादः भगिनि अस्तु सो अत्र किम् अस्ति अस्तु अधस्तनशब्दानां साहाय्येन यतोदाहरणं कथं वदामः अष्टशतम् अथवा अष्टोत्तरशतं नामावली इति वदामः खलु अष्टोत्तरशतम् अथवा अष्टाधिकशतम् अष्टाधिकशतम् अथवा अष्टोत्तरशतं वाक्यानि वदत् वदत् इति अस्ति चेत् कीदृशरूपम्
यूयं वदत
यूयं वदत मध्यमपुरुष बहुवचनं सम्यक् अस्तु त्वं वस्त्रम् अस्तु का आरम्भं करोति उर्मिला भगिनी
त्वं वस्त्रं क्रीणासि
क्रीणासि सम्यक् युवां
वस्त्रं क्रीणीतः यूयं वस्त्रं क्रीणीतः
क्रीणीत अस्तु सम्यक् उमाकृष्णन् भगिनी अस्ति वा अस्तु चम्पा भगिनी
आं भगिनि युवां वस्त्रं
तत् अभवत् भगिनि अहम् इति वदतु
अहं पुस्तकं क्रीणामि आवां पुस्तकं गृहिणी वः पुस्तकं गृह्णीमः
गृह्णीमः सो अत्र क्रीणामि गृह्णामि समानरूपं भवति क्रीणाति क्रीणीतः क्रीणन्ति एवं भवति अस्तु भवान् का वदति अस्तु श्रीनिवासमहोदय पुनः अन्य कोऽपि अस्ति वा यस्य नाम अहं न उक्तवती
अहमस्मि भगिनि
उषा भगिनि अस्तु अस्तु
वदामि
वदतु भवान् क्रीणाति इति स्वीकृत्य वदतु भगिनि
भवान् वस्त्रं क्रीणाति
क्रीणाति भवन्तौ
वस्त्रं क्रीणथ क्रीणतः
क्रीणीतः
क्रीणीतः ओ इट्स् नाट्
मध्यमपुरुषत्र
देट् इस् मध्यमपुरुष
सो अत्र अत्र पश्यतु भवान् क्रीणाति भवन्तौ क्रीणीतः भवन्तः क्रीणन्ति त्वं क्रीणासि युवां क्रीणीतः मध्ये ई आगच्छति क्रीणीतः क्रीणीथ क्रीणामि क्रीणीवः क्रीणीमः एवम् एवं भवन्ति रूपाणि
Can I do the other one next?
Vadatu.
Bhavantah, right? No? Bhavantah vastram krinitah krinam
samyak, samyak.
Krinantah.
Krinanti. Titah anti.
Okay, krinanti.
किमपि मध्ये मध्ये आगच्छति परन्तु अन्तिमरूपं तीतः अन्ति तदेव तीतः अन्ति अन्तिमरूपं तीतः अन्ति एव भवति अस्तु अन्य कोऽपि अस्ति वा
आं भगिनि वीणाबेन् भगिनि
वीणाबेन् भगिनि अस्तु वदतु त्वं गृह्णाति स्वीकृत्य
त्वं पुस्तकं गृह्णासि युवां पुस्तकं गृह्णीथः यूयं पुस्तकं गृह्णीथ
गृणीत सो अत्र हकारस्य उच्चारणं स्पष्टतया मास्तु गृणी एव गृह्णासि गृणीतः गृणीथ इति अस्तु श्रीनिवास महोदय धन्यवादः भगिनि अहम् अहम् आवां वयं गृह्णाति उपयुज्य
अहं पुस्तकं गृह्णामि आवां पुस्तकं गृह्णावः गृणीवः वयं पुस्तकं गृणीमः
सम्यक् सो अत्र क्रीणाति गृणीमः समानरूपाणि भवन्ति अस्तु अम्ब वदति वा भवान्
पुस्तकं
गृह्णाति
गृह्णाति
भवन्तौ
भवन्तौ पुस्तकौ गृह्णी
ई भवति मध्ये ई भवति द्विवचने ई नी भवति
गृह्णीमः
सम्यक् गृह्णीमः गृह्णीमः सो अत्र क्रीणाति क्रीणीतः क्रीणन्ति क्रीणासि एवमेव भवति गृह्णीतः समानरूपाणि भवन्ति त्रयादिगणः अस्ति बध्नाति बध्नीतः बध्नीत एवमेव भवति अस्तु
भगिनि वी हेव् टु मेक् 108 सेण्टेन्सस् वित् दीस् इस् इट्
या
ओ ओके
उदाहरणार्थं वित् वन् वि आर् मेकिङ्ग् 9 खलु वित् वन् 9 अबव् अत्र कथं भवति
54
ओ अस्तु अस्तु
थेङ्क् यू वेरि मच्
थेङ्क् यू महोदय भवान् इति वदतु लता भगिनी कृपया
भगिनि भवान् वस्त्रं गृह्णाति
भवन्तौ वस्त्रं गृह्णीत
गृह्णीतः
भवन्तः वस्त्रं भवन्तः गृह्णीतः
गृह्णन्ति अन्ते अन्ति भवति अन्ति सम्यक् सम्यक्
धन्यवादः
धन्यवादः भगिनि अस्तु मङ्गल् भगिनि इदानीं प्राप्नोति
भिन्नरूपम् भगिनि सिक्स् ओ क्लाक्
ओ अस्तु 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 थेङ्क् यू भगिनि ऐ गेट् सो केरियर् अवे धन्यवादः धन्यवादः अस्तु अस्तु समापयामः शान्तिमन्त्रम् उक्त्वा अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति 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 हरिः नमः ओके
धन्यवादः
भगिनि
धन्यवादः धन्यवादः
भगिनी भवती कोष्टकं प्रेषितवती किम्
आमां प्रेषितवान् प्रेषितवती
ईमेल् मध्ये प्रेषितवती
ईमेल् मध्ये न वाट्सप् मध्ये प्रेषितवती
अहं न दृश्यामि देट् इस् दट् टेबल् भगिनी वित् आल् द verb forms you have sent it by WhatsApp is it
yeah are you talking yes. about this one Bagini
yes yes this one
yes. I sent it.
I think I missed it
it is there.
Okay I'll check dhanyavada Bagini
dhanyavada
dhanyavada Bagini punarmilamaha
dhanyavada punarmilamaha